इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् ऑपरेशन सिन्दूर इत्यनेन आतंकवादेति विषये भारतस्य शून्य सहिष्णुता नीतेः प्रबलं वैश्विकं च सन्देशं प्रेषितम्। सः अवोचत् यत् भारतीय नागरिकाणां हानिं जनयितारं कुत्रापि स्थानं सुरक्षितं नास्ति इति भारतं स्पष्टम् अकरोत्। ह्यः नवदेहल्यां भारतस्य महान् आध्यात्मिक नैतिक नेतृभ्यां श्रीनारायण गुरु महात्मा गांधी इत्येतयोः मध्ये आयोजितस्य ऐतिहासिक संवादस्य शतवार्षिकोत्सवे प्रधानमंत्री भाषणम कुर्वनासी।
आज का भारत देश हित में जो भी हो सकता है और जो भी सही है उसके हिसाब से कदम उठाता है। आज सैन्य जरूरतों के लिए भी भारत की विदेशों पर निर्भरता लगातार कम हो रही है। हम डिफेंस सेक्टर में आत्मनिर्भर हो रहे हैं और इसका प्रभाव हमने ऑपरेशन सिंदूर के दौरान भी देखा है।
सह अवोचत यत् केरलस्य शिवगिरी मठे एक शताब्देः पूर्वं श्रीनारायण गुरु महात्मा गांधी इत्येतयोः मध्ये ऐतिहासिक संवादेन स्वातन्त्र्य आन्दोलनाय नूतना दिशा दत्ता। अद्य संविधान हत्या दिवसः आचर्यते। 75-1910 वर्षस्य जून मासस्य 25 दिनांके यदा भारतीय संविधानस्य पतनम् अभवत् तदा किम् अभवत् इति दिवसोऽयं स्मारयति। आपत्कालस्य आधिक्येन पीडितेभ्यः जनेभ्यः श्रद्धाञ्जलिं दातुमपि एषः दिवसः अस्ति। वर्धमानस्य राजनैतिक अशान्तेः न्यायिक विकासस्य च पृष्ठभूमौ आपत्कालस्य घोषणा कृता येन शासक नेतृत्वस्य वैधतायाः प्रकम्पनम् अभवत्। आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे स्वस्य विचारान् प्रकटयन् श्रीमोदी अवदत् यत् आपत्कालः भारतीय इतिहासस्य कृष्णतमः अध्यायः आसीत् इति।
जब देश में आपातकाल लगाया गया तब उसका विरोध सिर्फ राजनीतिक दायरे तक सीमित नहीं रहा था, राजनेताओं तक सीमित नहीं रहा था, जेल के सलाखों तक आंदोलन सिमट नहीं गया था। जन जन के दिल में एक आक्रोश था, खोए हुए लोकतंत्र की एक तड़प थी। आपातकाल में देश के हर नागरिक को लगने लगा था कि उसका कुछ छीन लिया गया है, जिसका उसने जीवन में कभी उपयोग नहीं किया था वो भी अगर छीन गया है तो उसका एक दर्द उसके दिल में था।
ईरान इजराइल देशयोर मध्ये युद्ध विरामस्य भारतेन स्वागतम विहितम्। विदेश मंत्रालयः एकस्मिन् वक्तव्ये अमेरिका देशस्य कतर देशस्य च भूमिकायाः प्रशंसाम् अकरोत्। अस्मिन् प्रदेशे प्रचलितानां संघर्षाणां समाधानार्थं वार्तालापः नीतयः च अन्यतमेषु उपायेषु परिगण्यते। मन्त्रालयः अवोचत् यत् एतेषु प्रयासेषु भारतं योगदानं कर्तुं सज्जमस्ति, तथा च सर्वे सम्बद्ध पक्षाः निरन्तर शान्तेः स्थिरतायाः च कृते कार्यं करिष्यन्ति इति आशां करोति। भारतं समग्रस्य निरन्तरस्य च प्रादेशिक सुरक्षायाः स्थिरतायाः च विषये गभीरतया चिन्तितम् अस्ति इति अवदत्। इज़राइल ईरान देशयोर्मध्ये युद्धविरामस्य पश्चादपि युद्धः प्रवर्तते, अपि च नियमस्योल्लङ्घनमाचर्यते। एतदर्थम् अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः विषयस्यास्य निन्दाम् अकरोत्। ट्रम्पः अवोचत् यत् सः इज़राइल देशस्य प्रधानमन्त्रिणं बेंजामिन नेतन्याहू वर्यम् ईरान देशं प्रति गच्छताम् इज़राइल देशस्य विमानान् पुनः आकारयितुम् उक्तवान् इति। अमेरिका देशस्य राष्ट्रपतिः इज़राइल देशमुद्दिश्य ईरान देशस्य उपरि विस्फोटक प्रहारं मा करोतु इति अवोचत्। एतदतिरिच्य इज़राइल देशस्य प्रशासनम् एकस्मिन् वक्तव्ये अवोचत् श्रीनेतन्याहू राष्ट्रपति ट्रम्प वर्ययोः मध्ये वार्तायाः अनन्तरं इज़राइल देशः ईरान देशस्य उपरि इतोपि प्रहारान् स्थगयत् इति। अपरस्मिन् पक्षे ईरान देशस्य राष्ट्रपतिः मसूद पेजेंशियन इत्येषः अवदत् यत् यावत् इज़राइल देशः युद्धविरामं करिष्यति तावत् सम्मानं भविष्यति इति। वार्ताः।